श्री गजेंद्र उवाच ॐ नमो भगवते तस्मै यत एतच्छिदात्मकं पुरुषायादिबीजाय परेशायापि धीमहि यस्मिन्निदं यतश्चेदं यनेदं यैदं स्वयं योऽस्मात् परस्माच्च परस्सम्प्रपद्ये स्वयम्भुवं यस्वात्मनिदं निजमायार्पितं क्वचित् विभातं क्वचित् अतिरोहितम् अविद्यदिक्साक्षिभयं तदीक्षते स आत्ममूलो अवतु मां परात्परम् कालेन पञ्चत्मते सुकृष्णसो लोकेषु पाल्येषु च सर्वहेतुषु तमस्तथा सद्गमहं गभीरं यस्तस्य पारे अविराजते विभु नयस्य देवा ऋषय पदं विदुर् जान्तु पुनकोरति गान्तु नीरितुं यथा नटस्याकृतिभिरुचेतसो दुरत्ययानुक्रमणः समावतु दिदक्षमो यस्य पदं सुमङ्गलं विमुक्तसङ्गामुनया शिशादवां चरन्त्यलोकाव्रतमव्रणं वने भूतात्मभूता सुहृदे समे गति न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा तथापि लोकप्ययसम्भवायया स्वमाययात्मानुकाल पृच्छति तस्मै नमः परेशाय ब्राह्मणे अनन्तशक्तये अरूपायोरुरूपाय नमो आश्चर्यकर्मणे नमो आत्मा प्रदीपाय साक्षिणे परमात्मने नमो गिरामिदूराय मनसश्चेतसामपि सत्त्वेन प्रतिलभ्यया नैष्कर्मेण विपश्चिता नमः कैवल्यनाथाय निर्वाणसुखसंहिते नमः शान्ताय घोराय मूढाय गुणधर्मिणे निर्विशेषाय साम्याय नमो ज्ञानघनाय च सिद्धज्ञान नमस्तुभ्यं सर्वदक्षाय साक्षिणे पुरुषाय नमूलाय मूला प्रकृतेः नमः हरे कृष्णा 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 हरे 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 राम 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 हरे हरे।